इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः ललितमोहनः तिवारी। आदौ मुख्यवार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अन्तर्जालीयपटले निगडनं डिजिटल अरेस्ट् इति विषये चिन्तां प्रकटितवान्। आकाशवाण्याः मन की बात इति कार्यक्रमे प्रधानमन्त्री प्रोक्तवान् यत् भारते अन्तर्जालीय क्रीडाक्षेत्रं निरन्तरं विस्तारं प्राप्नोति। भारतीय अन्तर्जालीय क्रीडाः विश्वे सर्वत्र लोकप्रियाः भवन्ति। जापानदेशे निम्नसदनस्य मतदानं प्रचलति। अपि च फ्रांसदेशे द्वितीय अन्ताराष्ट्रिय महिला ओपन कोजेक्स 24,000+ महिला एकलस्य उपाधिः आकांक्षा सलुन्खे इत्यनया विजिता। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्रमोदी अन्तर्जालीयपटले निगडनं डिजिटल अरेस्ट् इति विषये चिन्तां प्रकटितवान्। प्रधानमन्त्री अद्य आकाशवाण्याः मन की बात इति कार्यक्रमे प्रोक्तवान् यत् विधेनुरूपं कोऽपि अन्तर्जालीय निगडनं कर्तुं न शक्यते। सः अवदत् यत् एतत् छद्मकार्यं निवारयितुं सर्वाः अन्वेषणसंस्थाः कार्यं कुर्वन्ति।
डिजिटल अरेस्ट जैसी कोई व्यवस्था कानून में नहीं है, ये सिर्फ फ्रॉड है, फरेब है, झूठ है, बदमाशों का गिरोह है और जो लोग ऐसा कर रहे हैं वो समाज के दुश्मन है। डिजिटल अरेस्ट के नाम पर जो फरेब चल रहा है उससे निपटने के लिए तमाम जांच एजेंसियां राज्य सरकारों के साथ मिलकर काम कर रही है।
प्रधानमन्त्री कार्यक्रमेऽस्मिन् एकस्य पीडितस्य जलसाधकस्य च वार्तालापस्य अपि परिचर्चां विहितवान्। वार्तालापसमये सः जालसाधकः आत्मानं सैन्यकार्मिकः मादकद्रव्यविभागस्य अधिकारी च इति कथयति स्म। एतादृशाः जालसाधकाः व्यक्तिगतसूचनां गृहीत्वा भयस्य वातावरणं निर्मान्ति। प्रधानमन्त्रिणा डिजिटल् सुरक्षायाः त्रयः उपायाः चर्चिताः। अहं भवद्भ्यः डिजिटल् सुरक्षायाः त्रीणि सोपानानि वदामि। तिष्ठतु, विचारयतु, करोतु च।
मैं आपको डिजिटल सुरक्षा के तीन चरण बताता हूँ। रुको, सोचो, एक्शन लो।
विश्व सजीवीकरण दिवस अर्थात विश्व एनिमेशन दिवस अस्ति। अस्मिन् अवसरे प्रधानमन्त्रिणा उक्तं यत् भारतम् एनिमेशन जगति नूतन क्रान्तिं प्रति गच्छति। सः जनानाम् आह्वानं कृतवान् यत् ते एनिमेशन जगति भारतं वैश्विक शक्तिं कर्तुं प्रतिज्ञां कुर्वन्तु।
VR टूरिज्म बहुत फेमस हो रहा है। आज इस सेक्टर में एनिमेटर्स के साथ ही स्टोरी टेलर्स, राइटर्स, वॉइस ओवर एक्सपर्ट्स, म्यूजिशियंस, गेम डेवलपर्स, VR और AR एक्सपर्ट्स, उनकी भी मांग लगातार बढ़ती जा रही है। इसलिए मैं भारत के युवाओं से कहूंगा, अपनी क्रिएटिविटी को विस्तार दे। क्या पता दुनिया का अगला सुपरहिट एनिमेशन आपके कंप्यूटर से निकले।
श्री मोदी प्रशंसां कृतवान् यत् छोटा भीम, ढोलकपुर का ढोल, कृष्णा, हनुमान तथा मोटू पतलू एतेषां कार्यक्रमाणां प्रशंसकाः सम्पूर्णे विश्वे सन्ति। प्रधानमन्त्री प्रोक्तवान् यत् भारते अन्तर्जालीय क्रीडाक्षेत्रं निरन्तरं विस्तारं प्राप्नोति। भारतीय अन्तर्जालीय क्रीडाः विश्वे सर्वत्र लोकप्रियाः भवन्ति। वैश्विकस्तरस्य अपि भारतीय प्रतिभाः अन्तर्जालीय क्रीडाक्षेत्रे महत्वपूर्णं योगदानं ददति। प्रधानमन्त्रिणा उक्तं यत् अधुना एनिमेशन एकः उद्योगः जातः, यह अन्येभ्यः उद्योगेभ्यः अपि बलं ददाति। VR पर्यटनम् अस्य उदाहरणम् अस्ति।
इन दिनों VR टूरिज्म बहुत फेमस हो रहा है। आप वर्चुअल टूर के माध्यम से अजंता की गुफाओं को देख सकते हैं, कोणार्क मंदिर के कॉरिडोर में टहल सकते हैं या फिर वाराणसी के घाटों का आनंद ले सकते हैं। ये सभी VR एनिमेशन भारत के क्रिएटर्स ने तैयार किए हैं।
आत्मनिर्भर भारत अभियानस्य सफलतां दृष्ट्वा प्रधानमन्त्री प्रसन्नतां प्रकटितवान्। सः अवदत् यत् एतत् अभियानं देशस्य सामूहिक चेतनायाः भागम् अभवत्। प्रधानमन्त्री श्रोतृभ्यः आह्वानं कृतवान् यत् ते सामाजिक माध्यमेषु नवीनतायाः, आत्मनिर्भरस्य च भारतस्य उदाहरणानि अन्तर्जालीयतन्त्रांशे प्रेषयन्तु। अधुना उत्सवः समयः वर्तते। सः जनानाम् आह्वानं विहितवान् यत् वस्तूनां क्रयार्थं वोकल् फार् लोकल् इति मन्त्रं मनसि स्थापयन्तु। प्रधानमन्त्रिणा उक्तं यत् अस्मिन् वर्षे द्वयोः महानायकोः सरदार पटेलस्य बिरसा मुण्डायाः च 50-तमी जयन्ती वर्तते। अस्मिन् मासे 31 दिनांके सरदार पटेलस्य 50-तमी जयन्ती वर्तते। बिरसा मुण्डायाः 50-तमी जयन्ती च नवम्बर मासस्य 15 दिनांके आचर्यते।
यहाँ के अनंतनाग की फिरदोसा बशीर जी, उनको कैलीग्राफी में महारत हासिल है। इसके जरिए वे स्थानीय संस्कृति के कई पहलुओं को सामने ला रही है।
प्रधानमंत्री निज संबोधने सुलेखस्य अपि उल्लेखं कृतवान्। सा अवदत् यत् अद्यत्वे जम्मू कश्मीरे स्थानीय संस्कृतेः लोकप्रियतायै सुलेखस्य उपयोग अपि क्रियते। प्रधानमंत्री रूस देशस्य याकुत्सक नगरे संजाते कालिदासस्य अभिज्ञान शाकुन्तलम् इत्यस्य मञ्चनम् अभिनन्दितवान्। सः लाओस नगरे संजाते स्थानीय कलाकारैः लाओ रामायणस्य मञ्चनम् अपि प्रशंसितवान्। मन की बात इत्यस्मिन् कार्यक्रमे प्रधानमंत्री फिट इंडिया इत्यस्य विषये अपि चर्चां कृतवान्। सः प्रोक्तवान् यत् भारतस्य जनाः शारीरिक स्वास्थ्य विषये अधिकाः जागरूकाः भवन्ति। श्रीमोदी मन की बात इति कार्यक्रमे धनतेरस, दिवाली, छठ पूजा, गुरु नानक जयंती एतेषां पर्वणां शुभकामनाः जनेभ्यः प्रदत्ताः। संस्कृतवार्तायाः संस्करणमिदम् इदम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.in इत्यत्र चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। सीपीसीबी इति केन्द्रीय प्रदूषण नियन्त्रण मण्डलेन दिल्ली नगरस्य वायुगुणवत्ता स्तरम् अतिदूषितवर्गे स्थापितम्। अद्य अपराह्णे 1 नवदिल्ल्यां सीपीसीबी संस्थायाः वायुगुणवत्ता सूचकांकः 60+300 इति अभिलेखः जातः। शून्यतः 50 पर्यन्तम् AQI इति वायुगुणवत्ता सूचकांकः साधु भवति। तत्रैव 150 100 पर्यन्तं सन्तोषजनकं भवति, अथ 100 200 पर्यन्तं मध्यस्तरं भवति, 100 300 पर्यन्तम् असाधु भवति, 100 400 पर्यन्तम् अतीव असाधु भवति, तत्रैव 400 500 पर्यन्तं वायुगुणवत्ता स्तरं गभीरं भवति। जापान देशे निम्न सदनस्य मतदानं प्रचलति। सत्तारूढ़ लिबरल डेमोक्रेटिक पार्टी इत्यस्य नेतारूपेण शिगेरु इशिबा इत्यस्य निर्वाचनानन्तरं त्रिदिवसाभ्यन्तरे एव अस्य निर्वाचनस्य घोषणा विहिता। शिगेरु इशिबा प्रधानमन्त्रित्वेन आधिकारिकरूपेण शपथग्रहणमपि न कृतवान्। LDP इति दलेन निम्न सदनस्य 65+400 आसनेषु 47+200 आसनानि प्राप्तानि। तत्रैव कोमेइटो इति दलेन 32 आसनानि अधिगतानि। सदनस्य बहुमतं प्राप्तुं कस्यचित् दलस्य 33+200 आसनानाम् आवश्यकता भवितुम् अर्हति। प्रधानमंत्री श्री नरेन्द्र मोदी भारतीय शतरंज ग्रैंड मास्टर इत्युपाधिना समलंकृतम् अर्जुन एरिगायसीम् अभिनन्दितवान्। मोदी महोदय स्वीय संदेशे भारतीय गौरवं जनयितुं तस्य असाधारण प्रतिभाया दृढताया च प्रशंसाम् अकरोत्। अनेन बहव युवानः शतरंज क्रीडां क्रीडितुं समुत्सुकाः भविष्यन्ति इति सः अवोचत्। फ्रांस देशे द्वितीय अन्ताराष्ट्रिय महिला ओपन कोजेक्स 24+2000 वर्षस्य महिला एकलस्य उपाधि आकांक्षा सलुन्के इत्यनया विजिता। आकांक्षा गतरात्रौ अन्तिमपक्षे मलेशिया देशस्य यस्मिता जदीश कुमारं पराजितवती। मुख्यवार्ताः पुनरेकवारम्। प्रधानमंत्री नरेन्द्र मोदी अन्तर्जालीय पटले निगडनं डिजिटल अरेस्ट इति विषये चिन्तां प्रकटितवान्। आकाशवाण्याः मन की बात इति कार्यक्रमे प्रधानमंत्री प्रोक्तवान् यत् भारते अन्तर्जालीय क्रीडा क्षेत्रं निरन्तरं विस्तारं प्राप्नोति। भारतीय अन्तर्जालीय क्रीडाः विश्वे सर्वत्र लोकप्रियाः भवन्ति। जापान देशे निम्न सदनस्य मतदानं प्रचलति। अपि च फ्रांस देशे द्वितीय अन्ताराष्ट्रिय महिला ओपन कोजेक्स 24+2000 वर्षस्य महिला एकलस्य उपाधि आकांक्षा सलुन्खे इत्यनया विजिता।